निजात्मानं ब्रह्मरूपं देहत्रय विलक्षणं विभाव्यतेन कर्तव्या भक्तिः कृष्णस्य सर्वदा भक्तिः कृष्णस्य सर्वदा।